श्री शिवस्य प्रातः स्मरणम्। प्रातः स्मरामि भव भीतिहरं सुरेशं गंगाधरं वृषभवाहनमम्बिकेशं खट्वांगशूलवरदाभयहस्तमीशं संसार सर्गस्थिति प्रलय कारणमादिदेवं विश्वेश्वरं विजित विश्वमनोभिरामं संसाररोगहर मौषधमद्वितीयम् जामि शिवमेक मनंतमाद्यं वेदांत वेद्यमनघं पुरुषं महांतं नामादि भेदरहितं षड्भावशून्यं संसार मौषधमद्वितीयम् प्रातः समुत्थाय शिवं विचिन्त्य श्लोकत्रयं येनुदिनं पठन्ति ते दुःखजातं बहुजन्मसञ्चितं हित्वा पदं यान्ति तदेव शम्भुः। इति श्रीशिवस्य प्रातः स्मरणं सम्पूर्णम्।